स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्षमचिन्त्यरूपं प्रातर्नमामि तरणिं तनुवां मनोभिर्ब्रह्मेन्द्रपूर्वकसुरैर्नतमर्चितं च वृष्टिप्रमोचन विनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकम् प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च तं सर्वलोककलनात्मककालमूर्तिं गोकण्ठबन्धनविमोचनमादिदेवम् श्लोकत्रयमिदं भानो प्रातःकाले पठेत्तु यः स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात्।